एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्री केपी शर्मा ओली इलाम जनपदे निर्मितस्य माई नगर चिकित्सालयस्य झापा जनपदे निर्मितस्य भागीरथा नेउपानी बुद्ध शान्ति चिकित्सालयस्य च उद्घाटनं व्यदधत्। इलाम जनपदस्य माई नगरपालिकायाः द्वितीयवडा क्षेत्रस्य दानावारी स्थाने सार्ध दश रूपणी परिमितायां भूमौ दश कोटिः सप्ततिर्लक्षाणि च रूप्यकाणि व्ययीकृत्य पञ्चदश शय्यानां माई नगर चिकित्सालय निर्मितोऽस्ति। ह्यस्तनादेव दिवसात् सेवा प्रारब्धा च वर्तते इति नगर प्रमुखः खम्बसिंह लिम्बु अवोचत्। उद्घाटन कार्यक्रमं सम्बोधयन् प्रधानमन्त्री ओली विकास निर्माणस्य कार्येषु केनापि अवरोधः न स्रष्टव्यः इति भाषमाणः विकास निर्माणस्य कर्मसु सहभागिनो भवितुं सर्वान् अनुरुणत्। एवमेव प्रधानमन्त्री ओली झापा जनपदस्य बुद्ध शान्ति ग्रामपालिकायाः तृतीय ओडा क्षेत्रे पञ्चदश कठा परिमितायां भूमौ षण्णाम् कोटीनाम् पञ्चदशानाम् लक्ष्याणाम् च व्ययेन दशशय्यानाम् चिकित्सालयस्य उद्घाटन कार्यक्रमे उपचारात् केऽपि नागरिकः वञ्चितः न भवेयुः इति भावनया सर्वकारेण स्वास्थ्यक्षेत्रम् प्राथमिकतायाम् स्थापितमस्ति इति उदयरयत्। ह्य एव प्रधानमन्त्रिणा ओलिना झापा जनपदस्य कन्काई नगरपालिकायाम् इलाम जनपदस्य माई नगरपालिकायाञ्च अव्यवस्थितावासेभ्य भूमिहीनेभ्य दलितेभ्य अन्येभ्य भूम्यावासविहीनेभ्य जनेभ्यश्च भूस्वामित्वपत्रस्य वितरणं विहितम् आसीत्। त्रिभुवन विश्वविद्यालय शिक्षण चिकित्सालयेन स्वास्थ्य सेवां प्रभावपूर्णां गुणस्तरीयां च विधातुं सौविध्यपूर्णा चिकित्सालय सेवा सञ्चाल्यमाना अस्ति। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः ह्य चिकित्सालये पञ्चदश शय्यायुतस्य ग्रीन एरिया वार्ड इति आकस्मिक कक्षस्य थ्री टेस्ला एमआरआई इति अत्याधुनिक प्रविधि सेवायाश्च उद्घाटनम् विहितवान्। तदवसरे मन्त्री पौडेलः अतिरिक्तया सेवया अधिकै नागरिकैः सुलभरूपेण चिकित्सालय सेवायाः प्राप्त्यर्थं सहजता भवति इति अगदत्। भक्तपुर जाजरकोट जनपदौ पूर्णरूपेण टीकाकरणयुत जनपदौ उद्घुष्टौ वर्तेते। ह्य सूर्यविनायक नगरपालिकायाम् आयोजिते कार्यक्रमे बागमती प्रदेश सर्वकारस्य स्वास्थ्य मन्त्री किरण थापा भक्तपुर जनपदम् पूर्ण टीकाकरणस्य सुनिश्चिततायुतं जनपदम् उदघोषयत्। ह्य एव जाजरकोट जनपदोऽपि पूर्ण टीकाकरण युत जनपदः उद्घुष्टोऽस्ति। जनपदस्य सप्तानामेव स्थानीयस्तराणां षोडशतः त्रयोविंशति मासानां वयोयुतेभ्य बालबालिकाभ्यः राष्ट्रिय नियमित टीकाकरण तालिकायाः अनुसारेण निर्धारितानां सम्पूर्णानां टीकाकरण सेवानाम् आधानस्य पश्चात् जाजरकोट जनपदः पूर्ण टीकाकरण सुनिश्चिततायुतः जनपदः उद्घुष्टोऽस्ति इति जनपदस्य स्वास्थ्य सेवा कार्यालयस्य प्रमुखः डॉ सुनील पुन असूचयत्। अद्य द्वादशोत्तर द्विशततमी भानुजयन्ती आराश्रम विभिन्नै कार्यक्रमै सह समायोज्यमाना विद्यते। एकसप्तत्युत्तराष्टदशशततमे विक्रम संवत्सरे आषाढमासस्य ऊनत्रिंशे दिवसे तनहु जनपदस्य सुधीरम्घा ग्रामे लब्धजन्मा नेपाली भाषायाः आदिकवि भानुभक्त आचार्यः नेपालस्य राष्ट्रिय विभूतिर्वर्तते। जातीय कवेः सम्मानेन अलंकृतेन आदिकविना भानुभक्तेन संस्कृत भाषायाः अध्यात्म रामायणस्य आधारेण सरस सरल सुबोध नेपाली भाषायां रामायणं विरचय्य नेपाली जनतायाः प्रतिगृहम् एतत् प्रापय्य च अशेषमपि राष्ट्रं भाषिक रूपेण एकीकर्तुम् अद्वितीया भूमिका निर्विढा वर्तते। आदिकविना रामायणाद् अतिरिक्तान् प्रश्नोत्तर भक्तमाला वधुशिक्षा रामगीता प्रभृति ग्रन्थान् स्फुट कविताश्च विलिख्य नेपाली साहित्यस्य श्रीवृद्धे महद् योगदानं प्रदत्तं विद्यते। अद्य प्रातः काष्ठमण्डपस्य राज्ञ पुष्करिणीं निकषा स्थितात् भानुभक्तस्य प्रतिमास्थलात् परिक्रमां प्रारभ्य एतदीय प्रतिमायां माल्यार्पणं विधीयते। नेपालाद् बहिः भारतस्य दार्जीलिङ्ग सिक्किम प्रभृति भागेषु नेपालीनां निवासयुतेषु संसारस्य अन्येषु देशेषु च अद्य भानुजयन्ती भव्यतया समायोज्यते। अवसर स्पिन राष्ट्रपतिना रामचन्द्र पौडेलिन भानुभक्ति र नेपाली भाषायां प्रदत्तस्य योगदानस्य कारणेनैव आविश्वम नेपाली भाषिषु भाषिकैकतां संस्थापयितुं प्रापितस्य सहयोगस्य ऐतिहासिकं तथ्यं सर्वैः मननीयमिति उक्तं वर्तते। द्वादशोत्तर शतद्वयतम्यः भानुभक्त आचार्यस्य जन्मजयन्त्याः अवसरे कविं भानुभक्तं स्मरन् राष्ट्रपतिना पौडेलेन प्रदत्ते शुभकामना सन्देशे आविश्वं विद्यमानानां नेपालीनां सुखस्य शान्तिः समृद्धिश्च कामना विहिता अस्ति। बैतडी जनपदे ह्य जीपयानस्य दुर्घटनायां द्वौ जनौ मृतौ स्तः। धनगढ़ी स्थानात् दार्चुला जनपदस्य गन्ना स्थानं प्रति प्रस्थीयमानस्य जीपयानस्य दुर्घटनायां डीलासैनी ग्रामपालिकायाः प्रथमौड़ा क्षेत्रस्य यानचालकः चतुर्विंशति वर्षीयः सन्तोष बहादुर राणा द्वात्रिंशत् वर्षीयः किरण बोहरा च मृतौ इति प्रहरिणा ज्ञापितं वर्तते। दुर्घटनायां षड् जनाः आहताः वर्तन्ते। भूस्खलनस्य जलविप्लवस्य च कारणेन सम्प्रति देशस्य पञ्च राजमार्गाः अवरुद्धाः सन्ति। प्रहरी प्रधान कार्यालयस्य अनुसारेण कोशी राजमार्गः पासाङलामु राजमार्गः भेरी तटीय मार्गः अरनिकु राजमार्गः डोल्पा जनपदस्य त्रिपुरा सुन्दरी नगरपालिकायाः प्रथमौड़ा क्षेत्रस्य छलघाट स्थाने च मार्गः अवरुद्धा वर्तन्ते। भूस्खलनेन अवरूद्ध बैतडी जनपदस्य खोडपे बझाङ योजक जयपृथ्वी राजमार्ग सम्प्रति संचालितोऽस्ति। बैतडी जनपदस्य नाचन्थली स्थान समीपे मार्गस्य परिभागात् दुरापन्नेन भूस्खलनेन ह्य प्रातः कालात् राजमार्ग अवरूद्ध आसीत्। पाटनवर्तिनी मार्ग शाखा कार्यालयस्य डोजर यानस्य सहयोगेन भूस्खलने अपसारिते सति दिवा त्रिवादनाद मार्गः पूर्णतया संचालितोऽस्ति इति जनपद प्रहरी कार्यालयस्य प्रवक्ता प्रहरी निरीक्षकः बलराम पाण्डेयः असूचयत्। काष्ठमण्डपस्य चन्द्रागिरी नगरपालिकायाः द्वादशाधिकानि स्थानानि भूस्खलनस्य संकटे वर्तन्ते। अस्य वर्षस्य वर्षाकाले चन्द्रागिरी नगरपालिकायाः प्रथम द्वितीय तृतीय ओडा क्षेत्राणि भूस्खलनस्य उच्च संकटे वर्तन्ते। गतवर्षस्य आश्विनमासे दुरापन्नायाः वृष्टेः कारणेन प्रथम द्वितीय तृतीय पञ्चम नवम ओडा क्षेत्राणां कतिपयानि स्थानानि पुनः भूस्खलनस्य संकटे पतितानि सन्ति। एतत्पूर्वं भूस्खलनस्य समस्या न दृष्टेषु स्थानेषु अपि अधुना भूस्खलनैः जनधनयोः क्षतिः सम्भाविता अस्ति इति नगरपालिकायाः व्यवस्थापन शाखा प्रमुखः भद्रा अर्यालः असूचयत्। ताप्लेजुङ जनपदस्य फक्तालुङ ग्रामपालिकायां जलविप्लवेन क्षतिग्रस्तायाः लघु जलविद्युदायोजनायाः सम्भारस्य कार्यं ह्य प्रारब्धम् वर्तते। ग्रामपालिकायाः षष्ठवडा क्षेत्रस्य लेलिप स्थानस्य थाक्पा खोला नद्यां दुरापन्नेन जलविप्लवेन लघु जलविद्युदायोजनायाः कुल्याः प्रवाहणात् शतद्वयादपि अधिका गृहपरिवाराः विद्युत्सेवातः वञ्चिताः सन्ति। पूर्व राष्ट्रपतिः विद्यादेवी भण्डारी भाषते नेकपा एमाले दलेन अभ्यस्यमानः जनतायाः बहुदलीय जनवादः न केवलं राजनीतिक सिद्धान्तः अपितु मानव कल्याणाय सामाजिक न्यायाय च मार्गदर्शकं दार्शनिकं चिन्तनं वर्तते। मदन भण्डारी फाउण्डेशन इति संस्थया ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे पूर्व राष्ट्रपतिः भण्डारी जनतायाः बहुदलीय जनवादस्य विषये उच्च शैक्षिक संस्थासु अध्ययनस्य अनुसन्धानस्य विमर्शनस्य च व्यवस्था करणीया इति प्रावोचत्।